वसिष्ठ उवाच भगवन् केन विधिना नामभिर्वेङ्कटेश्वरम् पूजयामास तम् देवम् ब्रह्मा तु कमलैः शुभैः पृच्छामि तानि नामानि गुणयोगपराणि किम् मुख्यवृत्तीनि किम् ब्रूहि लक्षकाण्यथवा हरेः नारद उवाच नामान्यनन्तानि हरेर्गुणयोगानि कानिचित् मुख्यवृत्तीनि चान्यानि लक्षकाण्यपराणि च परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् आदिमध्यान्तरहितत्वव्यक्तोऽनन्तरूपभृत् चन्द्रार्कवह्नि वायुवादिग्रहर्क्षाणि नभो दिशः अन्वयव्यतिरेकाभ्याम् सन्ति नो सन्ति यन्मतेः तस्य देवस्य नाम्नाम् हि पारम् गन्तुम् हि कः क्षमः तथापि चाभिधानानि वेङ्कटेशस्य कानिचित् ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुव्रत यदुच्चारणमात्रेण विमुक्ताधः परम् व्रजेत् वेङ्कटेशस्य नाम्नाम् हि सहस्रस्य ऋषिर्विधिः छन्दोऽनुष्ट्वप् तथा देवः श्रीवत्साङ्को रमापतिः बीजभूतस्तथोङ्कारो ह्रीं क्लीं शक्तिश्च कीलकम् ॐ नमो वेङ्कटेशायेत्यादिर्मन्त्रोऽत्र कथ्यते ब्रह्माण्डगर्भः कवचमस्त्रम् चक्रगदाधरः विनियोगोऽभीष्टसिद्धौ हृदयम् सामगायणः अस्य श्रीवेङ्कटेशसहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मर्षिः अनुष्टप्छन्दः श्रीवत्साङ्को रमापतिर्देवता ॐ बीजम् क्रीं शक्तिः क्लीं कीलकम् ब्रह्माण्डगर्भ इति कवचम् चक्रगदाधर इत्यस्त्रम् सामगानयति हृदयम् ॐ नमो वेङ्कटेशायेत्यादिर्मन्त्रः श्रीवेङ्कटेशप्रीत्यर्थे जपे विनियोगः ध्यानम् भास्वच्चन्द्रमसौ यदीयनयने भार्या यदीयारमा यस्माद्विश्वसृढव्यभूद्यमिगुलम् यद्यानयुक्तम् सदा नाथो यो जगताम् नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान् तातो यो मदनस्य यो दुरितः तम् वेङ्कटेशम् भजे ऊर्ध्वौ हस्तौ यदीयौ सुररिपुदलने बिभ्रतौ शङ्खचक्रे सेव्यावङ्घ्री स्वकीयावभिदधरधरो दक्षिणो यस्य पाणिः तावन्मात्रम् भवाब्धिम् गमयति भजता मूरुगो वामपाणिः श्रीवत्साङ्गश्च लक्ष्मीर्यतुरसिलसतस्तम् भजे वेङ्कटेशम् इति ध्यायन् वेङ्कटेशम् श्रीवत्साङ्गम् रमापतिम् वेङ्कटेशो विरूपाक्ष इत्यारभ्य जपेत् क्रमात् ॐ वेङ्कटेशो विरूपाक्षो विश्वेशो विश्वभावनः विश्वसृङ् विश्वसंहर्ता विश्वप्राणो विराड्वपुः शेषाद्रिनिलयो शेषभक्तदुःखः प्रणाशनः शेषस्तुत्यशेषशायी विशेषज्ञो विभुस्वभूः विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सविष्णुः सहिष्णुकः भ्राजिष्णुश्च ग्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः कालयन्त कालगोप्त कालः कालान्तकोऽखिलः कालगम्यः कालकण्ठवन्द्यः कालकलेश्वरः शम्भस्वयम्भोरम्भोजनाभिस्तम्भितवारिधिः अम्भोजिनन्दिनी जाणिशोणाम्भोजपदप्रभः कम्बुग्रीवः शम्बरारिरूपः शम्बरजेक्षणः बिम्बाधरो बिम्बरूपे प्रतिबिम्बक्रियादिगः गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः परेशः परमात्मा च परम् ज्योतिः परागतिः परम् पदम् वियद्वासाः पारम् पर्यशुभप्रदः ब्रह्माण्डगर्भो ब्रह्मण्यो ब्रह्मषड्ब्रह्मबोधितः ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्यपरायणः सत्यव्रतार्थसन्तुष्टः सत्यरूपी झषाङ्गवान् सोमकप्राणहारी च नीताम् नायोऽभ्युसञ्चरः देवासुरवरस्तुत्यः पदन्मन्दरधारकः धन्वन्तरिः कच्छपाङ्गः पयोनिधिविमन्थकः अमरामृतसन्धाता धृतसम्मोहिनी वपुः हरमोहकमायावी रक्षः सन्दोहभञ्जनः हिरण्याक्षविदारी च यज्ञो यज्ञविभावनः यज्ञीयोर्वे समुद्धर्ता लीलाक्रोडः प्रतापवान् दण्डकासुरविध्वंसे वक्रदंष्टः क्षमाधरः गन्धर्वशापहरणः पुण्यगन्धो विचक्षणः करालवक्त्रः सोमार्कनेत्र षड्गुणवैभवः श्वेतगोणीगोर्णितभ्रोर्घुर्घुरध्वनिविभ्रमः राघीयान्नीलकेशी च जाग्रदम्बुजलोचनः घृणावान् घृणिसम्मोहो महाकालाग्निदीधिः ज्वालाकरालवदनो महोल्काकुलवीक्षणः सटा निर्भिन्नमेघौः दंष्ट्रारुव्याप्तदिक्कटः उच्छ्वासाकृष्टभूतेशो निःश्वासत्यक्तविश्वसृट् अन्तर्भ्रमज्जगद्गर्भो नन्दो ब्रह्मकपालहृत् उग्रो वीरो महाविष्णुर्ज्वलनः सर्वतोमुखः नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः सभास्तम्भोद्भवो भीमः शिरो माली महेश्वरः द्वादशादित्यचूटालः कल्पधूमसटाच्छविः हिरण्यकोरस्थलभिन्नखः सिंहमुखो नखः प्रह्लादवरदो धीमान् भक्तसङ्घप्रतिष्ठितः ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः लक्ष्मीनृसिंहो देवेशोज्ज्वालाजिह्वान्त्रमालिकः खड्गीखेटी महेश्वासी कपाली मुसलीहली पाशीशूली महाबाहुर्ज्वरघ्नो रोगलुण्ठकः मौञ्जीयुक्षत्रकोदण्डी कृष्णाजिनधरो वटुः अधीतवेदो वेदान्तोद्धारको ब्रह्मनैष्ठिकः अहीनशयनप्रीत आदितेयो नघो हरिः संवित्प्रियः सामवेद्यो बलिवेश्मप्रतिष्ठितः बलिक्षालितपादाब्जो विन्ध्यावलिविमानितः त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः धृतत्रिविक्रमः साङ्घ्रिनखभिन्नाण्डखर्परः पज्जातवाहिनीधारा पवित्रितजगत्त्रयः विधिसम्मानितः पुण्यो दैत्ययोद्धाजयोर्जितः सुरराज्यप्रदशुक्रमदहृत्सुगतीश्वरः जामदग्न्यः कुठारी च कार्तवीर्यविदारणः रेणुकाया शिरोहारी दुष्टक्षत्रियमर्दनः वर्चस्वेदानशीलश्च धनुष्मान् ब्रह्मवित्तमः अद्युदग्रः समग्रश्च निक्रोधो दुष्टनिग्रहः रविवंशसमुद्भूतो राघवो भरताग्रजः कौसल्यातनयो रामो विश्वामित्रप्रियङ्करः ताटकारिः सुबाहुघ्नो बलादिबलमन्त्रवान् अहल्या शापविच्छेदे प्रविष्टजनकारयः स्वयंवरसभासंस्त ईश चापप्रभञ्जनः जानकी परिणेता च जनकाधीश संस्कृतः जमदग्नितनोजातयोद्धा योध्याधिपाग्रणीः पितृवाक्यप्रदीपालश्चित्तराज्यः स लक्ष्मणः ससीतश्चित्रकूटस्थो भरताहितराज्यकः काकदर्पप्रहर्ता च दण्डकारण्यवासकः पञ्चवट्याम् विहारी च स्वधर्मपरिपोषकः विराधागस्त्यमुख्यमुनिसम्मानितः पुमान् इन्द्रचापधरः खड्गधरश्चाक्षयसायकः खरान्तको दूषणारिस्त्रिशिरःकरिपुर्वृषः ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः जटावान्पर्णशालास्थो मारी च बलमर्दकः पक्षिराकृतसंवादो रवितेजा महाबलः शबर्यानीतफलभुग्हनोमत्परितोषितः सुग्रीवाभयदो दैत्यकायक्षेपणभासुरः सप्ततालसमुच्छेत्ता वालिहृत्कपि संवृतः वायुसोऽनुकृतासेवस्त्यक्तपम्पः कुशासनः उदन्वर्तेरगशूरो विभीषणवरप्रदः सेतुकृद्दैत्यः प्राप्तलङ्कोऽलङ्कारवान् स्वयम् अतिकायशिरश्चेत्ता कुम्भकर्णविभेदनः दशकण्ठशिरोध्वंसी जाम्बवत्प्रमुखावृतः जानकेशः सुराध्यक्षः साकेतेशः पुरातनः पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः लक्ष्मीसरः केळिलोलो लक्ष्मीशो लोकरक्षकः देवके गर्भसम्भूतो यशोदेक्षणलालितः वसुदेवकृतस्तोत्रो नन्दगोपमनोहरः चतुर्भुजः कोमलाङ्गो गदान्नीलकुन्तलः भूतना प्राणसंहर्तार्नावर्तविनाशनः गर्गारोपितनामाङ्गो वासुदेवोऽध्यथोक्षजः गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः वैयाघ्रनकभूषश्च वत्सदिवत्सवर्धनः क्षीरसाराशनरतो दधिभाण्डप्रमर्दनः नवनीतापहर्ता च नीलनीरदभासुरः आभीरदृष्टदौर्जन्यो नीलपद्मनिभाननः मातृदर्शितविश्वास्य उलूखलनिबन्धनः नलकोबरशापान्तो गोधूलिच्छुरिताङ्गकः गोसङ्घरक्षकः श्रेषो वृन्दारण्यनिवासकः वत्सान्तकोपगद्वेषी दैत्याम्बुदमहानिलः महाजगरचण्डाग्निः शकटप्राणकण्टकः इन्द्रसेव्यः पुण्यगात्रः खरचिच्छण्डदीधितिः कालपक्वफलाशी च काळीयफणिदर्पः नागपत्नीस्तुतिप्रेतः प्रलम्बासुरखण्डनः दावाग्निबलसंहारी फलाहारी गदाग्रजः गोपाङ्गनाचेलचोरः पाथो लीलाविशारदः वंशगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः मुनिपत्न्या हृताहारो मुनिश्रेष्ठो मुनिप्रियः गोवर्धनाद्रिसङ्घर्ता सङ्क्रन्दनतमोपहः सदुद्यानविलासी च रासक्रीडापरायणः वरुणाभ्यर्चितो गोपी प्रार्थितः पुरुषोत्तमः अक्रूरस्तुतिसम्प्रीतः गुब्जा यौवनदायकः मुष्टिकोरः प्रहारी च चाणूरोदरधारणः मल्लयुद्धाग्रगण्यश्च पितृबन्धनमोचकः मत्तमादङ्गपञ्चास्यः कंसग्रीवानिक्रन्दनः उग्रसेनप्रतिष्ठाता रत्नसिंहासनस्थितः कालनेमिखलद्वेषी मुचुकुन्दवरप्रदः साल्वसेवितदुर्धर्षराजस्मयनिवारणः रुक्मगर्वापहारी च रुक्मिणीनयनोत्सवः प्रद्युम्न जनकः कामे प्रद्युम्नो द्वारकाधिपः मन्या हर्ता महामायो जाम्बवत्कृतसङ्गरः जाम्बो नदाम्बरधरो गम्यो जाम्बवती विभुः कालिन्दे प्रतिता रामकेलिर्गुञ्जावतंसकः मन्दारसुमनोभास्वान् शचीशाभीष्टदायकः सत्राजिन्मानसोल्लासी सत्याजानिः शुभावहः शतधन्वहरः सिद्धः पाण्डवप्रियकोत्सवः भद्रः प्रियः सुभद्राय भ्राता नाग्नाजिनी विभुः किरीटकुण्डलतरः कल्पपल्लवलालितः भैष्मे प्रणयभाषावान्मित्रबिन्दाधिपो भयः स्वमूर्तिकैलिसम्प्रेतो लक्ष्मणोदारमानसः प्राग्ज्योतिषादिपध्वंसे तत्सैन्यान्तकरोमृतः भूमिस्तुतो भूरिभोगो भूषणाम्बरसंयुतः बहुरामाकृताक्लादो गन्धमाल्यानुलेपनः नारदादृष्टचरितो देवेशो विश्वराड्गुरुः बाणबाहुवितारश्च तापज्वरविनाशकः कुशोद्धर्षयिता व्यक्तः शिववाक्तुष्टमानसः महेशज्वरसंस्कृत्य शीतज्वरभयान्तकः मृगराजोद्धारकश्च पौण्ड्रकादिवधोद्यतः विविधारिच्छलोद्विग्नब्राह्मणेषु दयापरः जरासन्धबलद्वेषी केशिदैत्यभयङ्करः चक्रे चैत्यान्तकः सभ्यो राजबन्धविमोचकः राजसूयः विर्भोक्ता स्निग्धाङ्गः शुभलक्षणः घानाभक्षणसम्प्रेतः कुचेलाभीष्टदायकः सत्त्वादिगुणगम्भीरो द्रौपदीमानरक्षकः भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः दन्तवक्त्रशिरश्चेत्ता कृष्णः कृष्णा सखस्वराट् वैजयन्ती प्रमोदी च बर्हिबर्हविभूषणः पार्थकौरवसन्धानकारी दुःशासनान्तकः बुद्धो विशुद्धः सर्वज्ञक्रतुहिंसा विनिन्दकः त्रिपुरश्रीमानभङ्गः सर्वशास्त्रविशारदः निर्विकारो निर्ममश्च निराभासो निरामयः जगन्मोहकधर्मी च दिग्वस्त्रो दिग्पतीश्वरः कल्की म्लेच्छप्रहर्ता च दुष्टनिग्रहकारकः धर्मप्रतिष्ठाकारी च चातुर्वर्ण्यविभागकृत् युगान्तको युगाक्रान्तो युगकृत्युगभासकः कामारिः कामकारी च निष्कामः कामितार्थदः भर्गो वरेण्यम् सवितुः शार्ङ्गे वैकुण्ठमन्दिरः हयग्रेवः कैटभारिर्ग्राहघ्नो गजरक्षकः सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः कपर्दीकामहारी च कलाकाष्ठा स्मृतिर्भृतिः अनादिरप्रमेयौ जाः प्रधानः सन्निरूपकः निर्लेपो निःस्पृहो सङ्गो निर्भयो नीतिपारकः निष्प्रेष्यो निःश्रियः शान्तो निष्प्रपञ्चो निधिर्णयः कर्म्यकर्मी विकर्मी च कर्मेत्सुः कर्मभावनः कर्माङ्गः कर्मविन्यासो महाकर्मी महाव्रती कर्मभुः कर्मफलदः कर्मेशः कर्मनिग्रहः नरो नारायणो दान्तः कपिलः कामदः शुचिः तप्ता जप्ता क्षमालावान् गन्धानेतालयो गतिः शिष्टो द्रष्टारिबुद्वेष्टारोष्टा वेष्टा महानटः रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यधीः शुभः मन्त्रे मन्त्रो मन्त्रगम्यो मन्त्रकृत्परमन्त्रहृत् मन्त्रभृन्मन्त्रफलतो मन्त्रेषो मन्त्रविग्रहः मन्त्राङ्गो मन्त्रविन्यासो महामन्त्रो महाक्रमः स्थिरधीस्थिरविज्ञानस्थिरप्रज्ञस्थिरासनः स्थिरयोगस्थिराधारस्थिरमार्गस्थिरागमः निःश्रेयसो निरीहोऽग्निर्निरवद्यो निरञ्जनः निर्वैरो निरहङ्कारो निर्दम्भो निरसूयकः अनन्तोऽनन्दबाहोरुरनन्ताङ्घ्रिरनन्तदृगे अनन्तभक्तोऽनन्ताङ्गोऽनन्तरूपोऽह्यनन्तकृते ऊर्ध्वरेतावोर्ध्वलिङ्गो ह्योर्ध्वमूर्ध्वोर्ध्वशाखकः ऊर्ध्वऊर्ध्वाध्वरक्षी च ह्योर्ध्वज्वालो निराकुलः बीजम् बीजप्रदो नित्यो निदानम् निष्कृतिः कृति महाननीयान् गरिमा सुषमा चित्रमालिकः नभस्पृङ्नभसो ज्योतिर्नभस्वाण्यर्नभानभः अभुर्विभप्रभः शम्भुर्महीयान्भोर्भुवाकृतिः महानन्दो महाशूरो महोराशिर्महोत्सवः महाक्रोधो महाज्वालो महाशान्तो महागुणः सत्यव्रतः सत्यपरः सत्यसन्धः सदाम् गतिः सत्येशः सत्यसङ्कल्पः सत्यचारित्रलक्षणः अन्तश्चरो ह्यन्तरात्मा परमात्मा चिदात्मकः रोचनो रोचमानश्च साक्षी शौरिर्जनार्दनः मुकुन्दो नन्दनिष्पन्दः स्वर्णबिन्दुः पुरन्दरः अरिन्दमः सुमन्दश्च मुदमन्दारहासवान् स्यन्दनारूढचण्डाङ्गो ह्यानन्दी नन्दनन्दनः अनसूयानन्दनो त्रिनेत्रानन्दसुनन्दवान् शङ्खरान् पङ्कजकरः कुङ्कुमाङ्को जयाङ्कुशः अम्भोजमकरन्दाढ्यो निष्पङ्को गरुपङ्किलः इन्द्रश्चन्द्ररथश्चन्द्रो हरिचन्द्रश्चन्द्रभासकः उपेन्द्र इन्द्रराजश्च वागीन्द्रश्चन्द्रलोचनः प्रत्यक्पराक्परम् धाम परमार्थः परात्परः अपारवाक्पारगामी पारावारः परावरः सहस्वानर्थदाता च सगणः साहसीजयी तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः ऐश्वर्योद्भोतिगृद्भोतिरैश्वर्याङ्गलापवान् अम्भोधिशाली भगवान् सर्वज्ञः सामपारकः महायोगी महाधीरो महाभोगी महाप्रभुः महावीरो महातुष्टिर्महापुष्टिर्महागुणः महादेवो महाबाहुर्महाधर्मो महेश्वरः समीपलो दूरगामे स्वर्गमार्गनिरर्गलः नगो नगधरो नागो नागेशो नागपालकः हिरण्मयस्वर्णरेता हिरण्यार्चिर्हिरण्यतः गुणगण्यः शरण्यश्च पुण्यकीर्तिः पुराणकः जन्यभृज्जन्यसन्नद्धो दिव्यपञ्चायुधो वशी दौर्जन्यभङ्गः पर्जन्यः सौजन्यनिलयोलयः जलन्धरान्तको भस्मदैत्यनाशी महामनाः श्रेष्ठश्रविष्ठोद्ग्राभिष्ठो गरिष्ठो गरुडध्वजः ज्येष्ठोद्रशिष्ठो वरिषिष्ठोद्राघीयान् प्रणवः पणि सम्प्रदायकरः स्वामी सुरेशो माधवो मधुः निर्निमेषो विधिर्वेधा बलवान् जीवनम् बली स्मर्ता श्रोता विकर्ता च ध्याता नेता समो समः होता पोता महावक्तारन्ता मन्ता खलान्तकः दाता ग्राहयिता माता नियन्तानन्त वैभवः गोप्ता गोपयिता हन्ता धर्मजागरिता धवः कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ आत्मविद् क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुते भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायकः शक्तियुन्मौक्तिकः स्रग्वे सूक्तिराम्नाय सूक्तिकः धनञ्जयो धनाध्यक्षो धनिको धनधाधिपः महाधनो महामानि दुर्योधनविमानितः रत्नाकरो रत्नरोचि रत्नगर्भाश्रयः शुचिः रत्नसारनिधिर्मौलिरत्नाभारत्नकङ्कणः अन्तर्लक्ष्योऽन्तरभ्यासी चान्तर्ध्येयोजितासनः अन्तरङ्गोदयावांश्च ह्यन्तर्मायो महार्णवः सरसः सिद्धरसिकः सिद्धिः साध्यः सदा गतिः आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः अष्टश्रेरष्टभागोऽष्टगोव्याप्तयशोग्रति अष्टापदः सुवर्णाभोह्यष्टमूर्तिस्त्रिमूर्तिमान् अस्वप्नस्वप्नगः स्वप्नः सुस्वप्नफलदायकः दुःस्वप्नध्वंसकोद्वस्तदुर्निमित्तः शिवङ्करः सुवर्णवर्णः सम्भाव्यो वर्णितो वर्णसम्मुखः सुवर्णमुखरीतीर शिवध्यातपदाम्बुजः दाक्षायणीव चस्तुष्टो दूर्वासो दृष्टिगोचरः अम्बरीषव्रतप्रीतो महाकृत्तिविभञ्जनः महाविचारकध्वंसी कालसर्पभयान्तकः सुदर्शनः कालमेघश्यामः श्रीमन्त्रभावितः हेमाम्बुजसरस्नायी श्रीमनोभाविताकृतिः श्रीप्रदत्ताम्बुजस्रग्वी श्रीकेलिश्रीनिधिर्भवः श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः सन्तृप्तस्तर्पितस्तीर्थस्नात्रसौख्यप्रदर्शकः अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः कपिलार्चिः कपिलवान् सुस्नाताघविपाटनः वृषाकपिः कपिः स्वामिमनोऽन्तस्थितविग्रहः वह्निप्रियोऽर्थसम्भाव्यो जनलोकविधायकः वह्निप्रभो वह्नितेजा शुभाभीष्टप्रदोयमि वारुणक्षेत्रनिलयो वरुणो वारणार्चितः वायुस्थानकृतावासो वायुगो वायुसंहृतः यमान्तकोऽभिजननो यमलोकनिवारणः यमिनामग्रगण्यश्च संयमीयमभावितः इन्द्रोद्यानसमीपस्थ इन्द्रदृग्विषयः प्रभुः यक्षराट्सरसीवासो ह्यक्षय्यनिधिकोशकृते स्वामितीर्थकृतावासः स्वामिध्येयोऽद्यथोक्षजः वराहाद्यक्ततीर्थाभिसेविताङ्घ्रिसरोरुहः पाण्डुतीर्थाभिषिक्ताङ्गो युधिष्ठिरवरप्रदः भीमान्तःकरणारूढः श्वेतवाहनसख्यवान् नकुलाभयतो माद्री सह देवाभिवन्दितः कृष्णाशपथसन्धाता कुन्ते स्तुतिरतोदमी नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः दर्शिताव्यक्तरूपश्च वीणानादप्रमोदितः षट्कोटितीर्थचर्यावान् देवतीर्थकृताश्रमः बिल्वामलजलस्नायी सरस्वत्यम्बुसेवितः तुम्बुरोदकसंस्पर्शजनचित्ततमोपहः मत्स्यवावनकूर्मादितीर्थराजः पुराणभृत् चक्रध्येयपदाम्भोजः शङ्खपूजितपादुकः रामतीर्थविहारी च बलभद्रप्रतिष्ठितः जामदग्न्यसरस्तीर्थजलसेचनतर्पितः पापापहारिकीलालसुस्नाताघविनाशनः नभो गङ्गाभिषिक्तश्च नागतीर्थाभिषेकवान् कुमारधारातीर्थस्थो वटुवेषः सुमेखलः वृद्धस्य सुकुमारत्वप्रदः सौन्दर्यवान् सुखी प्रियं वदो महाकुक्षिरिक्ष्वाकुकुलनन्दनः नीलगोक्षीरधाराभोर्वराहाचलनायकः भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः अञ्जनाकृतपूजावान् आञ्जनेयकरार्चितः अञ्जनाद्रिनिवासश्च मुञ्जकेशः पुरन्दरः किन्नरद्वन्द्वसम्बन्धो बन्धमोक्षप्रदायकः वैखानसमखारम्भो वृषज्ञेयो वृषाचलः वृषकाय प्रभेत्ता च क्रीडनाचारसम्भ्रमः सौवर्चलेय विन्यस्तराज्यो नारायणः प्रियः दुर्मेधो भञ्जकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः भद्रासुरशिरश्चेत्ता भद्रक्षेत्री सुभद्रवान् मृगयाक्षीण सन्नाहः शङ्करजन्यतुष्टितः स्थानस्थो वैनतेयाङ्गभावितो ह्यशरीरवान् भोगेन्द्रभोगसंस्थानो ब्रह्मादिगणसेवितः सहस्रार्कच्छटाभाः सद्विमानान्तस्थितो गुणी विश्वक्सेन कृतस्तोत्रः सनन्दनवरीवृतः जाह्नव्यादिनदीसेव्यः सुरेशाद्य विवन्दितः सुराङ्गनानृत्यपरो गन्धर्वोद्गायनप्रियः रागेन्दुसङ्काशनखः कोमलाङ्घ्रिसरोरुहः कच्छपः प्रमदः कुन्दगुल्फकः स्वच्छकोर्परः मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलः प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभङ्गरः अनन्तपद्मजस्थाननाभिर्मौक्तिकमालिकः मन्दारचाम्बेयवाणी रत्नाभरणसम्भृतः लम्बयज्ञोपवीती च चन्द्रश्रीखण्डलेपवान् वरदोभयदश्चक्री सङ्गेकौस्तुभदीप्तिमान् श्रीवत्साङ्गितवक्षस्को लक्ष्मी संश्रितहृत्कटः नीलोत्पलनिभाकारः शोणाम्भोजसमाननः कोटिमन्मथलावण्यश्चन्द्रिकास्मितपूरितः सुधा स्वच्छोर्ध्वपुण्ड्रश्च कस्तूरीलीलाञ्छितः पुण्डरीके क्षणः स्वच्छो मौलिशोभाविराजितः पद्मस्थः पद्मनाभश्च सोममण्डलगो बुधः वह्निमण्डलगः सूर्यः सूर्यमण्डलसंस्थितः श्रीपतिर्भूमिजानिश्च विमलाद्यभिसंवृतः जगत्कुटुम्बजनिता रक्षकः कामिदप्रदः अवस्थात्रययन्ता च विश्वतेजस्वरूपवान् ज्ञप्तिर्ज्ञेयो ज्ञानगम्यो ज्ञानादीतः सुरादिगः ब्रह्माण्डान्तर्बहिर्व्याप्तो वेङ्कटाद्रिगदाधरः श्रीवेङ्कटाद्रिगदाधर ॐ नम इति एवम् श्रीवेङ्कटेशस्य कीर्तितम् परमाद्भुतम् नाम्नाम् सहस्रम् संश्राव्यम् पवित्रम् पुण्यवर्धनम् श्रवणात् सर्वदोषघ्नम् रोगघ्नम् मृत्युनाशनम् दारिद्र्यभेदनम् धर्म्यम् सर्वैश्वर्यफलप्रदम् कालाहिविषविच्छेदिज्वरापस्मारभञ्जनम् शत्रुक्षयकरम् राजग्रहपीडानिवारणम् ब्रह्मराक्षसकूष्माण्डभेतालभयभञ्जनम् विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् अनन्तकल्पजीवी स्यात् आयुष्कामो महायशाः पुत्रार्थे सुगुणान् पुत्रान् लभेदायुष्मतस्ततः सङ्ग्रामे शत्रुविजयी सभायाम् प्रतिवादिजित् दिव्यैर्नामभिरेभिस्तो तुलसी पूजनात्सकृत् वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ कल्हारपूजनान्मासाद्वितीयैव यक्षराट् नीलोत्पलार्चनात् सर्वराजपूज्यः सदा भवेत् हृत्संस्थितैर्नामभिस्तो भूयाद्रग्विषयो हरिः वाञ्छितार्थम् तदा दत्त्वा वैकुण्ठम् च प्रयच्छति त्रिसञ्जयो जपेन्नित्यम् सम्पूज्य विधिना विभुम् त्रिवारम् पञ्चवारम् वा प्रत्यहम् क्रमशोयमि मासादलक्ष्मीनाश स्याद्विमासात् स्यान्नरेन्द्रता त्रिमासान्महदैश्वर्यम् ततः सम्भाषणम् भवेत् मासम् पठन्यो न कर्ममूर्तिम् च समवाप्नुयात् मार्गभ्रष्टश्च सन्मार्गम् गतः स्वस्वम् स्वकीयकम् चाञ्चल्यचित्तो अचाञ्चल्यम् मनःस्वास्थ्यम् च गच्छति आयुरारोग्यमैश्वर्यम् ज्ञानम् मोक्षम् च विन्दति सर्वान् कामानवाप्नोति शाश्वतम् च पदम् तथा सत्यम् सत्यम् पुनः सत्यम् 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 न संशयः